एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। जलवायु विज्ञान विभागान्तर्गतया जलवायु पूर्वानुमान महाशाखया सम्प्रति पश्चिमवातस्य स्थानीयस्य वातस्य च प्रभावः अस्तित्यतः आगामिषु त्रिषु दिवसेषु वृष्टेः सम्भावना अस्तीति ज्ञापितम् वर्तते। सम्प्रत्यपि देशस्य प्रायः स्थानेषु आंशिकरूपेण साधारणरूपेण च वृष्टिः जायमाना वर्तते। झञ्झावातः वज्रपातश्चापि जायमानोऽस्त इत्यतः सावधानताम् अवलम्बितुं महाशाखया अनुरुद्धमस्ति। वर्षापूर्वसमये विशेषतया सायंकाले वज्रपातेन सहिता वृष्टिः सम्भवतीति महाशाखया सावधानीकृतं वर्तते। गृहमन्त्रालयेन हुम्ला जनपदस्य नामखा ग्रामपालिकायाः षष्ठ वडा क्षेत्रस्य तिलग्रामे हिमरदस्य विस्फोटनेन प्रभावितानां परिवाराणां कृते तत्कालमेव उद्धारं सहयोगं च विधातुं निर्णीतमस्ति। गृहमन्त्रिणः रमेशलेखकस्य संयोजकत्वे गृहमन्त्रालये ह्यः उपविष्टेन सम्बद्धनिकायानाम् उपवेशेन तत्कालमेव सहयोग सामग्रीः प्रदातुम् उद्धारं कर्तुं च निर्णीतमस्ति। उपवेशे सहभागी जलवायु विज्ञान विभागस्य महानिर्देशकः कमलराम जोशी भूस्खलनस्य कारणविषये अनुसन्धानाय अध्ययन समितेः संघटनाय निर्णयो विहितोऽस्तीति असूचयत्। जलवायुविज्ञः मञ्जीत ढकालः साम्प्रतिक्यः अवस्थायाः पर्यालोचने हिमरदानां विस्फोटनस्य सम्भावना वर्धमानास्तीत्यतः अनुसन्धानाय ध्यानं प्रदेयम्, पूर्वसूचना प्रदान प्रणाल्याः संयोजनाय ध्यानं देयम् इति च परामृशत्। ह्यः उपविष्टे प्रतिनिधिसभायाः उपवेशे माओवादी केन्द्रस्य सांसदः छिरिङ डम्डुल्लामा भूटे तिलग्रामस्य जनाः संकटे वर्तन्ते इति चर्चयन् तत्कालमेव उद्धाराय सहयोगाय च सर्वकारस्य ध्यानाकर्षणं विहितवान् आसीत्। अधिकार दुरुपयोगानुसन्धानायोगेन राष्ट्रिय सूचना प्रविधि केन्द्रस्य तात्कालिकेन कार्यकारी निर्देशकेन सुनील पौडेलेन सहितानां पञ्चानां जनानां विरुद्धे पञ्चकोटिनां 79 लक्षाणां च रूप्यकाणां भ्रष्टाचारो विहितः इत्यारोप्य आरोपपत्रं पञ्जीकारितमस्ति। पञ्चसप्तत्युत्तर द्विसहस्रतमे च वैक्रमाब्दयोः कृतानां मुख्य प्राविधिकोपकरणानां मूल्यं वैद्युत सञ्जाले प्राप्तात् साम्प्रतिकात् मूल्यात् अधिकस्य मूल्यस्य दर्शनेन भ्रष्टाचारस्यारोपे आरोपपत्रं पञ्जीकारितमस्तीति आयोगस्य प्रवक्ता राजेन्द्र कुमार पौडेलः असूचयत्। केन्द्रस्य तात्कालिकस्य सहायक निर्देशकस्य रमेश पोखरेलस्य सुसांख्य स्थपतेः रामशरण गायकस्य तात्कालिक लेखाधिकृतस्य निम्बहादुर ओली इत्यस्य मैक्स इन्टरनेशनल संस्थायाः प्रमुख कार्यकारीधिकृतस्य अकबर हुसेन इत्यस्य च विरुद्धे पञ्चकोटिनां 79 लक्षाणां च रूप्यकाणां हानिवित्तस्य निर्धारणं विधाय आरोपपत्रं पञ्जीकारितमस्ति। नारायणघाट बुटवल मार्गायोजनया आसन्न 94 किलोमीटरमितस्य मार्गस्य एकपक्षतः वज्रीकरणस्य कार्यं सम्भूतमस्तीति ज्ञापितं वर्तते। आयोजनया ह्य विज्ञप्तिं प्रकाश्य आसन 14.1 शतकिलोमीटरमिते मार्गे 94 किलोमीटरमितस्य मार्गस्य वज्रीकरणानन्तरं तत्र मार्गे सहजयात्रां कर्तुं शक्यते इति ज्ञापितम् अस्ति। अवशिष्टस्य मार्गस्य अधिकभागः दाउन्ने क्षेत्रे वर्तते। तत्र कुलिका निर्माणस्य कार्यं विधीयमानमस्ति। कार्यम् अन्तिमे चरणे प्राप्तमस्तीति च आयोजनायाः स्थपतिः शिवखनालः असूचयत्। दाउन्ने खण्डस्य आसन्न 14 किलोमीटरपरिमिते मार्गे वज्रीकरणस्य अभावे सम्प्रत्यपि अस्य मार्गखण्डस्य यात्रा कष्टयुता वर्तते। प्रतिनिधिसभायाः ह्यस्तनोपवेशेन गतविक्रमवर्षीयं जलस्रोतो विधेयकं बहुमतेन पारित कृतं वर्तते। उपवेशे ऊर्जो जलस्रोत सेचन मन्त्रिणा दीपक खड्काभिधेन प्रस्तुतं गतविक्रमवर्षीयं विधेयकमेतत् सभाया बहुमतेन पारित कृतमस्ति। तत्पूर्वं विधेयकमाधृत्य विहिते विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री खड्का जलस्य उपयोगाय संरक्षणाय च विधिगत व्यवस्थायै विधेयकमेतत् महत्वपूर्णम् स्यात्स्यतीति अगतत्। तदवसरे मन्त्रिणा खड्का विदेन जलविद्युत् विकासः, जलस्य सामर्थ्यम्, तस्य संरक्षणम्, जलस्य आवंटनम् च न्यायोचितरूपेण कथम् कर्तुम् शक्यते इति विषयः विधेयकेन स्पष्टीकृताः वर्तन्ते इति च उक्तम् आसीत्। गृहमन्त्री रमेश लेखकः भाषते गत चैत्रस्य पञ्चदशे दिवसे काष्ठमण्डपस्य तिन्कुने स्थाने घटितायां घटनायां विहितम् अग्निदाहस्य हिंसायाश्च कर्म अपराधस्य कर्म वर्तते इत्यतः कार्यमेतत् केनापि धर्मेण आस्थया च संयोज्य बोद्धुम् न शक्यते। प्रतिनिधिसभायाः ह्यस्तनोपवेशे सांसदैस्सह प्रश्नोत्तरस्य कार्यक्रमे गृहमन्त्री लेखकः आपराधिक कर्मसु संलग्नः सर्वेऽपि जनाः दण्डनस्य परिधौ आनश्यन्ते एवेति प्रतिबद्धताम् व्यक्तवान्। कस्यामपि घटनायां धर्मस्य नाम्नि उन्मुक्तेः प्रदानम् उचितम् न भवतीति गृहमन्त्री लेखकः समस्पष्टयत्। उपवेशे सांसदा प्रेम सुवालः, निशा डागी, शोभिता गौतमश्च गृहमन्त्रिणे लेखकाय प्रश्नान् पृष्टवन्तः आसन्। उपवेशे प्रसंगान्तरे महिला बाल बालिका ज्येष्ठ नागरिक मन्त्री नवल किशोर शाह सुडी सामाजिक सुरक्षा भरणम् नागरिकतां प्राप्तवद्भि जनैः एव लब्धुम् शक्यते इति स्पष्टीकृतवान् आसीत्। एवमेव उपवेशे सांसदानां प्रश्नान् उत्तरयन् कृषि पशुपक्षि विकास मन्त्री रामनाथ अधिकारी उत्पादनम् उत्पादकत्वञ्च प्रवर्ध्य खाद्यपोषण सुरक्षायां योगदान प्रापणस्य उद्देश्येन कृषिक्षेत्रस्य आत्मनिर्भर सम्पादनस्य नीतिः सर्वकारेण अवलम्बिता अस्तीति असूचयत्। राष्ट्रियसभायाः ह्यस्तनोपवेशेन काचित् नेपालाधिनियमान् संशोधयितुम् निर्मितम् अशीत्युत्तर द्विसहस्रतम विक्रमवर्षीयम् विधेयकमाश्रित्य विचारितामिति निगद्य प्रस्तुतः प्रस्तावः स्वीकृतोऽस्ति। उपवेशे विधि न्याय संसदीय विषय मन्त्रिणा अजय कुमार चौरसिया विधेन प्रतिनिधिसभातः ससन्देशं प्राप्तं काचित् नेपालाधिनियमान् संशोधयितुं निर्मितं विधेयकं विचार्यतामिति निगद्य प्रस्तुतः प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। उपवेशे संचार सूचना प्रविधि मन्त्रिणा पृथ्वी सुब्बा गुरुङ इत्यनेन गत विक्रमवर्षीयं चलचित्र विधेयकं सभासमक्षं प्रस्तुतमासीत्। राष्ट्रसभायाः ह्यस्तनोपवेशे भौतिक पूर्वाधार यातायात मन्त्रिणा देवेन्द्र दाहालेन आयोजनानां निर्धारित समये पूर्णतायाः अभावे कस्यापि पक्षस्य स्वार्थे विद्यमाने सति अनुसन्धाय परीक्षणं कृत्वा उपयुक्तं दण्डनस्य कार्यं विधीयते इति प्रतिबद्धता व्यक्तमासीत्। उपवेशे सांसदः हुम्ला जनपदस्य नामखा ग्रामपालिकायाः षष्ठवडा क्षेत्रे भूस्खलनस्य कारणेन ऊनविंशतेः परिवाराणां त्रयस्त्रिंशतः पीडितानां कृते सुरक्षितावासस्य उचितायाः क्षतिपूर्तेश्च व्यवस्थायै सर्वकारस्य ध्यानाकर्षणं विहितवन्तः। राष्ट्रसभायाः अपरोपवेशः श्व दिवासपादैकवादने वस्ता। प्रधानमन्त्रिणा केपी शर्मा ओलिना एतत् विक्रमवर्षीयं गणतन्त्र दिवसं भव्यरूपेण समायोजयितुम् अनुरुद्धमस्ति। प्रधानमन्त्रिणः अध्यक्षतायां मूलसमारोह समितेः संघटनानन्तरं प्रधानमन्त्री ओली जनस्तरेष्वपि दिवसोऽयं भव्यरूपेण सम्पादयितुम् अन्वरुणत्। सिंहप्रासादवर्तिनि प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये पूर्वेद्युः उपविष्टेन उपवेशेन अस्यैव ज्येष्ठमासस्य चतुर्दशे, पञ्चदशे, षोडशे च दिवसेष् सार्वजनिकनिकायेष् दीपप्रज्ज्वलनपुरस्सरं गणतन्त्रदिवसम् आयोजयितुम् केन्द्रस्य, प्रदेशानां, स्थानीयस्तराणां च सर्वकाराणां, सम्बद्धनिकायानां, संघसंस्थानाञ्च प्रतिनिधीनाञ्च समावेशनं कृत्वा स्तरगतरूपेण समितयः, उपसमितयश्च संघटिताः सन्ति। तनह जनपदस्य ऋषिङ ग्रामपालिकायाः तृतीयवडा क्षेत्रस्य सोलुङ स्थाने घासकर्तनस्य क्रमे निपत्य ह्य जनद्वयं मृतं वर्तते। सोलुङवर्तिनि कटोर्के सामुदायिक वने घासकर्तनाय गते तृतीयवडा क्षेत्र निवासिनी 62 वर्षीया श्रीमाया राणा, देवघाट ग्रामपालिकायाः द्वितीयवडा क्षेत्रस्य 27 वर्षीया खिमसरा मगर च मृते इति प्रहरिणा ज्ञापितम् वर्तते।